शुद्ध ज्ञान देहाय त्रिवेदी दिव्य चक्षुषे श्रेय प्राप्ति निमित्ताय नमः सोमार्धधारिणे। सर्वमेतद्विजानीयान्मन् मन्त्रणामभिकीलकम् सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः। सिद्ध्यन्तोच्चाटनादिनि वस्तूनि सकलान्यपि एतेन स्तुवतां देवि स्तोतं मात्रेण सिद्ध्यति। न मन्त्रो नोषधं तत्र न किञ्चिदपि विद्यते विना जापेन सिद्ध्येत सर्वमोच्चाटनादिकम्। सिद्ध्यन्ति लोकशङ्कामिमां हरः कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्। श्रोतं वै चण्डिकायस्तु तच्च गुप्तं चकारसः समाप्तिर्न च पुण्यस्य तां यथा वन्ययन्त्रणाम्। सोऽपि क्षेममवाप्नोति सर्वमेवं न संशयः कृष्णायं वा चतुर्दश्यामष्टम्यां वा समाहितः। ददाति प्रतिगृहणाति नान्याथैषा प्रसीदति इत्थं रूपेण कीलेन महादेवेन कीलितम्। यो निष्किलां विधायैनां नित्यं जपति संस्फुटं सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः। न चैवाप्यर्थतः स भयं क्वापि हि जायते नापमृत्यो वशं याति कृतो मोक्षमवाप्नुयात्। प्रारभ्य कुर्वति न कुर्वणो विनश्यति ततो ज्ञातैव सम्पन्नमिदं प्रारभ्यते बुद्धैः। सौभाग्याद्विजयत्किश्चद् दृश्यते ललनार्जने सर्वतत्प्रसादेन तेन जाप्यमिदं शुभम्। सनस्ते जप्यमानेऽस्मिन् श्रोते सम्पिक्तरुच्यकै भवत्येव समग्रापि ततः प्रारभ्यमेव तत्। ऐश्वर्ययत्प्रसादेन सौभाग्यारोग्यसम्पदः शत्रुहानिः परो मोक्षः स्तूयते सा न किञ्जनैः। इति दिव्यः किलकस्त्रोतं सम्पूर्णम्।